आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका सुषमा कुमारी। आदौ मुख्य वार्ताः। भारतदेशः बांग्लादेशे अल्पसंख्यक समुदाये हिन्दू समुदाये च संजातेषु हिंस्र प्रकरणेषु गंभीरो वर्तते। प्रोक्तं च यत् तत्रत्य प्रशासनम् एतदर्थं पूर्णरूपेण उत्तरदायी वर्तते। संसदः द्वयोः सदनयोः कार्यजातं विभिन्न प्रकरणेषु विपक्षीय व्यवधानकारणाच्च चतुर्थे दिवसेऽपि स्थगितम्। गृहमन्त्रिणा अमितशाहेन भुवनेश्वरे अद्य आरक्षि महानिदेशकानां महानिरीक्षकाणां च त्रिदिवसीय अखिल भारतीय सम्मेलनम् उद्घाटितम्। प्रधानमन्त्री श्वः भागं निर्वक्ष्यति। अपि च सैयद मोदी अन्ताराष्ट्रिय बैडमिंटन प्रतिस्पर्धायां महिला एकल प्रागुपान्त्यचक्रे पीवी सिन्धुः प्रतिष्ठा। अथ वार्ताः विस्तरेण। भारतीय प्रशासनेन भणितं यत् बांग्लादेशे अल्पसंख्यकानां विरुध्य हिंस्र घटनसम्बद्ध स्थितिः दृष्टिपथे वर्तते। तत्र हिन्दू समुदाये हिंस्रघटनाः घटिताः। वार्ताहरः सम्बोधयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीर सिंह जायसवालः भणितवान् यत् तत्रत्य प्रशासनम् अल्पसंख्यकान् समेत्य सर्वेषां नागरिकाणां जीवनसुरक्षा स्वतन्त्रतायै च पूर्ण उत्तरदायी वर्तते। विदेशमन्त्रिणा सुब्रह्मण्यम् जयशंकरेण प्रोक्तं यत् प्रशासनेन बांग्लादेशे हिन्दू समुदायं विरुध्य संजाताः हिंस्रघटनाः गंभीररूपेण मनसि निधाय कार्यम् आचरितम्। तेनोक्तं यत् बांग्लादेशे वर्षेऽस्मिन् अगस्तमासे अल्पसंख्यकानां जनानां गृहाणि व्यावसायिक प्रतिष्ठानानि च क्षतिग्रस्तानि जातानि। मन्दिरेषु पूजास्थलेषु आक्रमणानि संजातानि। एतादृशानि घटनानि समालोक्य प्रशासनं चिन्तितं वर्तते। श्री जयशंकरेण प्रोक्तं यत् प्रशासनं ढाकायां भारतीय उच्चायोगे स्वकीय दृष्टिं संधारयति। बांग्लादेशीय प्रशासनेन प्रतिपादितं यत् देशे इस्कॉन सम्बद्ध प्रकरणेषु तं प्रति प्रतिबन्ध विषये च कोऽपि विचार विमर्शः नैव जातः। अन्तरिम प्रशासनेन पर्यावरण वन ऋतु परिवर्तन सम्बद्ध परामर्शदात्रा सम्यक् रिजवाना हसनेन गुरुवासरे ढाकायां सूचना इयं प्रदत्ता। इतः प्राक् गुरुवासरे बांग्लादेशीय उच्चन्यायालयेन इस्कॉन सम्बद्ध याचिकायां प्रतिबन्धं स्थापयितुं याचिका एका निराकृता। न्यायालयेन प्रशासनस्य प्रतिक्रियायां सन्तुष्टिः अभिव्यक्ता। सम्पत्ति सुरक्षा विषये च दिङ्निर्देशाः अपि सम्प्रसारिताः। तदनन्तरं बांग्लादेशस्य महासचिवेन चारु चन्द्र हास ब्रह्मचार्येण ढाकायां वार्ताहराः सूचिताः यत् चिन्मय कृष्णादास ब्रह्मचारी अस्मदीय संघटनस्य नास्ति, यतोहि संघटनेन तं निष्कासितम्। संसदः सदनद्वयम् अद्य शीतकालीन सत्रस्य चतुर्थे दिवसेऽपि व्यवधानपुरस्सरं स्थगितं जातम्। प्रमुख व्यापारिक समूहं विरुध्य कथित प्रवञ्चना आरोपान् समेत्य विभिन्न प्रकरणेषु राज्यसभा लोकसभा उभयोः सदनयोः कार्यजातं दिवसात्मकं यावत् स्थगितम्। लोकसभायाः पुनः कार्यं यदा प्रारब्धं तदा कांग्रेस डीएमके समाजवादी विपक्षिदलीय सदस्यैः तुमुल कोलाहलं कृतवन्तः। प्रश्नकालमपि अध्यक्षस्य ओम बिडलायाः अपील अनन्तरम् अपि प्रचलितम्। अत्यधिक व्यवधान कारणात् अध्यक्षेण सदनस्य कार्यजातं दिवसात्मकं यावत् स्थगितम्। राज्यसभायां यदा प्रातः सदनस्य उपवेशनं प्रारब्धं तदा सभापतिना जगदीप धनखडेन विपक्षस्य स्थगन प्रस्तावः निरस्तीकृतः। तेनोक्तं यत् जनाः व्यवहारेऽस्मिन् दुःखिताः सन्ति।
I express my deep anguish. We are creating a very bad precedent. We are dishonoring the people of this country. We are not coming up to the expectations. Our actions are not people-centric. They are to absolute public distaste. We are getting into irrelevance. People are ridiculing us.
तेन भणितं यत् तुमुल कोलाहलमध्ये सभापतिना सदस्य कार्यजातं दिवसात्मकं यावत् स्थगितम्। आम आदमी पार्टीति दलीय सांसदैः दिल्ल्याम् आपराधिक घटनासु वृद्धिः आरोपं विधाय संसदः बहिः प्रदर्शनं विहितम्। पार्टीनेता संजय सिंहः वार्ताहरान् प्रोक्तवान् यत् केन्द्र प्रशासनं राजधान्याम् आपराधं रोद्धुम् उपायाः विदधाति। अपरत्र पंजाब राज्यस्य कांग्रेस सांसदैः संसद परिसरे प्रदर्शनं विहितं। तेनारोपितं यत् भारतीय खाद्य निगम न्यूनतम समर्थन मूल्येषु शस्यानि नैव विक्रणाति। अत्र सांसदेन पंजाब कांग्रेस प्रमुखनेता अमरिंदर सिंहेन आरोपितं यत् पंजाब प्रान्तीय कृषकैः साकं अन्यायं संजायते। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशेऽपि उपलब्धो भविष्यति। केन्द्रीय गृहमन्त्रिणा अमितशाहेन भुवनेश्वरे ओडिशायाम् अद्य आरक्षि महानिदेशकानां निरीक्षकाणां च अखिल भारतीय सम्मेलनं समुद्घाटितम्। त्रिदिवसात्मकीय सम्मेलनमिदम् आन्तरिक सुरक्षा, साइबर अपराध, माओवादी आक्रमण, कृत्रिम सम्युपातित विषयेषु चर्चा सम्भाव्यते। आतंकवादं सम्मुखीकर्त्मपि विचार विमर्शो भविष्यति। अस्मदीय वार्ताहरेण विज्ञापितं यत् अवसरेऽस्मिन् विशिष्ट सेवायै राष्ट्रपति आरक्षि पदकानि अपि प्रदास्यन्ते। प्रधानमन्त्री नरेन्द्र मोदी सम्मेलने अस्मिन् श्वः भागं निर्वक्ष्यति। एतदतिरिच्य राष्ट्रिय सुरक्षा परामर्शदाता अजीत डोभालः अपि उपवेशनेऽस्मिन् स्वभूमिकां प्रस्तोष्यति। उत्तर पश्चिमीय क्षेत्राणां विकास मन्त्रिणा ज्योतिरादित्य सिंधिया वर्येण भणितं यत् आगामि अष्टलक्ष्मी महोत्सवः उत्तर पश्चिमीय क्षेत्राणां रिक्तस्थानं प्रपूरयति। हर्षोल्लासेन पूरितं इदं जनानां मध्ये एव भूरि प्रसन्नता अपि जनजागरणं भविष्यति। तेन भणितं यत् माता लक्ष्मी सुख समृद्धि पारस्परिक सौहार्द ज्ञान धर्म सदृश बहुषु अर्थेषु पूजयति। विश्वविद्यालय अनुदान आयोगः शीघ्रमेव स्नातकोत्तर छात्राणां कृते उपाधि पाठ्यक्रमस्य अवधिं न्यूनीकर्तुं विस्तारयितुं वा विकल्पं प्रदास्यति। यूजीसी इत्यनेन त्वरिता उपाधि कार्यक्रमस्य विस्तारित उपाधि कार्यक्रमस्य च मानक संचालन प्रक्रियाः अनुमोदिताः। यूजीसी इत्यस्य अध्यक्षः एम जगदीश कुमार वार्ताविहीनां माध्यमेन अवदत् यत् त्वरित उपाधि कार्यक्रमेण छात्राः प्रतिसत्रम् अतिरिक्त क्रेडिट इति अर्जयित्वा अल्प अवधौ त्रिवर्षीयां चतुर्वर्षीयां वा उपाधिं सम्पन्नां कर्तुं शक्नुवन्ति। विस्तारितः उपाधि कार्यक्रमः प्रतिसत्रं न्यूनानि क्रेडिट सहितं विस्तारितायां समयरेखां समक्षं पुष्टिं च करिष्यति। अद्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सबलं प्रतिपादितं यत् पर्यटनस्य पार्श्वे नैकेषां जनानां जीवने समृद्धिम् आनेतुं सामर्थ्यं वर्तते। प्रतिष्ठित पर्यटन केन्द्राणां विकासाय चत्वारिंशत् परियोजनानाम् अनुमोदनस्य घोषणा कुर्वता पर्यटन मन्त्रिणः गजेन्द्र सिंह शेखावतस्य सामाजिक संचालीय सन्देशं पुनः प्रसारयन्ता श्रीमोदिना उक्तं यत् भारतस्य पर्यटनस्य आधारभूत संरचनायाः संवर्धनाय सर्वकारः निरन्तरं ध्यानं दास्यति। सः अवदत् यत् एतेन प्रयासेन अधिकाः जनाः अतुल्य भारतस्य आश्चर्यम् अनुभवितुं शक्नुवन्ति इति सुनिश्चितं भविष्यति। सर्वोच्च न्यायालयेन अद्य उत्तरप्रदेशस्य संभलस्थ शाही जामा मस्जिद समित्याः मस्जिद सर्वेक्षण प्रकरणस्य विषये उच्च न्यायालये गन्तुं निर्दिष्टम्। भारतस्य मुख्य न्यायाधीशस्य संजीव खन्ना वर्यस्य न्यायाधीशस्य संजय कुमारस्य च पीठः संभल मस्जिद सर्वेक्षणस्य अनुमतिं प्रदत्तस्य एतद् वादश्रवणं कुर्वम् आसीत्।